अथ कृष्णाष्टकम् पालयाच्युत पालयाजित पालया कमलालय लीलया धृतभूधराम्बुरुहोदर स्वजनोदर मध्वमानस पद्मभानुसमं स्मर प्रतिमं स्मर स्निग्धनिर्मलशीतकान्तिलसन्मुखं करुणोन्मुखम् हृद्यकम्बुसमानकन्धरमक्षयं दुरितक्षयम् स्निग्धसंस्तुतरूप्यपीठकृतालयं हरिमालयम् अङ्गदादिसुशोभिपाणियुगेन संशुभितैन सं तुङ्गमाल्यमणीन्द्रहारसरोरसं खलनीरसम् मङ्गलप्रदमन्थदामविराजितं भजताजितम् तं गृणेवररूप्यपीठकृतालयं हरिमालयम् तीनरम्यतनोदरं भज हे मनः शुभ हे मनः स्वानुभावनिदर्शनाय दिशन्तमर्थि सुशन्तमम् आनतोऽस्मि निजार्जुन प्रियसाधकं खलबाधकम् हीनतोज्झितरूप्यपीठकृतालयं हरिमालयम् हैमकिङ्किणिमालिकारशनाञ्चितं तमवञ्चितम् कम्रकाञ्चनवस्त्रचित् कटिं घनप्रभयाघनम् नम्रनागकरोपमोरुमनामयं शुभधीमयम् नौम्यहं वररूप्यपीठकृतालयं हरिमालयम् वृत्तजानुमनोग्नजङ्घममोहदं परमोहदम् रत्नकल्पनखद्विषाहृतहृत्तमस्ततिमुत्तमम् प्रत्यहं रचितार्चनं रमया स्वया गतया स्वयम् चित्तचिन्तय रूप्यपीठकृतालयं हरिमालयम् चारुपादसरोजयुग्मरुचामरोच्चय चामरोदारमूर्धजभानुमण्डलरञ्जकं कलिभञ्जकम् वीरतोचितभूषणं वरनूपुरं स्वतनूपुरम् धारयात्मनिरूप्यपीठकृतालयं हरिमालयम् शुष्कवादिमनोतिदूरतरागमोत्सवदागमम् सत्कवीन्द्रवचो विलासमहोदयं महितोदयम् लक्षयामि यतीश्वरैः कृतपूजनं गुणभाजनम् धिक्कृतोपमरूप्यपीठकृतालयं हरिमालयम् नारदप्रियमाविशाम्बुरुहे क्षणं निजरक्षणं तारकोपमचारुदीपचयान्तरे गतचिन्तरे धीरमानसपूर्णचन्द्रसमानमच्युतमानम द्वारकोपमरूप्यपीठकृतालयं हरिमालयम् पीठकृतालयस्य हरेः प्रियं दुरिताप्रियम् तत्पदार्चकवादिराजयतीरितं गुणपूरितम् गोप्यमष्टकमेतदुच्चमुदे ममास्पिह निर्ममा प्राप्य शुद्धफलाय तत्र सुकोमलं हृतधीमलम् पालयाच्युतपालय जितपालय कमलालय लीलयाधृतभूधराम्बुरुहोदर स्वजनोदर इति श्री वादिराजतीर्थ विरचितं कृष्णाष्टकम्।